भगवान श्रीमन महाप्रभु चैतन्य देव हिमसेल्फ नॉट कंपोज एनी बुक फॉर अस बिकॉज हिज टीचिंग्स इज वेरी सिंपल एंड जिस्ट अप ऑल द वैदिक नॉलेज एंड वेरी सिंपली She directed us to follow this kind of spiritual life. You will be super benefited. In this Kali Yuga, only Harinam Sankirtan is the best procedure to satisfy Lord Sri Krishna. Then chant Hare Krishna. Mahamantra, Lord's name, Bhaktivinoda Thakur, mention it. Je, so many divine name of Lord, all is same fruitful for the practitioners. Bhaktivinoda Thakur same given that meanings. Second sloka of Srikashtakam, Nam Nam Kari Bahudha Nija Sarva Shakti. This sloka. Sakala Sakati Dei Name Tuhara, Grahane Rakhali Nahi Kalo Vichara. Sri Nama Chintamani Tuhar Samana, Vishya Bilavali Karuna Nidana. This way. Translation in poetry, Bhaktivinoda Thakur express second sloka of Srikashtakam. Then we can understand. Nama aneko tua sikhavali ani. So many divine name of Lord. Sri Chaitanya Mahaprabhu, when started Sankirtan, he first started with this Hari Haraye Nama Krishna, Jadavaya Nama, Jadavaya, Madhavaya, Kesavaya Nama. There is not Hare Krishna. Hare Krishna come later when he become world preacher, religious. Anyhow, Sisri Srikashtakam Chetu Darpana Marjanam Bhava Mahadavagni Nirvapanam Sriya Kairava Chandrika Vitaranam Vidyavadhu Jeevanam Anandam Budhivardhanam प्रतिपदं पूर्णामृतास्वादनं सर्वात्मस्नवनं परं विजयते श्रीकृष्णसङ्कीर्तनम्। नामनामकारि बहुधा निज सर्वशक्ति स्तत्रार्पिता नियमितस्मरणेन काल एतादृशी तव कृपा भगवन् ममापि दुर्दैवमीदृशमिहा जनुनानुराग तृणादभिशुनीचेन तरुणिव सहिष्णुना अमानिनमानदेन कीर्तनीय सदा हरि। न धनं न जनं न सुन्दरीं कवितां जगदीश कामये मम जन्मनि जन्मनीश्वरि भवताद् भक्तिर हैतुकी त्वयि। अयि नन्दतनुज किङ्करं पतितं मां विषमे भवाम्बुदौ कृपया तव पाद पंकज स्थित धूलि सदृशं विचिन्तया नयनं गलदश्रुधारया बदनं गदगदरुद्धया गिरा पुलकैर्निचितं वपुः कदा तव नाम ग्रहणे भविष्यति युगायितं निमेषेण चक्षुषा प्रावृषायितं सुन्नायितं जगत् सर्वं गोविन्द विरहे न मे आश्लिष्य वा पादलतां पिनश्चु माम् अदर्शनं सनान मर्म हतां करोतु वा यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः